एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। सर्वकारेण नैज विद्यालयेषु स्वास्थ्य क्षेत्रेषु च प्रतिशतम् त्रिभिरङ्कैर्निर्धारितः समताकरः निरस्तीकृतोऽस्ति। प्रधानमन्त्रिणा बालेन्द्र सायेन सामाजिक सञ्जालस्य माध्यमेन अस्याः व्यवस्थायाः क्रियान्वयनेन साधारण जनेषु व्ययाधिक्यस्य नैराश्यस्य च वर्धनस्य स्थितिर्दर्शनात् समताकरः निरस्तीकृतोऽस्ति इति स्पष्टीकृतम् वर्तते। प्रधानमन्त्रिणा सायेन अर्थमन्त्रिणा डा स्वर्णिम वाग्ले विधेयन सह विहितस्य परामर्शस्य अनन्तरम् सम्प्रति शिक्षा समता शुल्कम् स्वास्थ्य समता शुल्कम् च न क्रियान्वेतुम् निर्णीतम् अस्ति इति उक्तवान् उक्तम् वर्तते। प्रतिशतम् त्रिभिरङ्कैर्निर्धारितस्य समताकरस्य उद्देश्यम् दुर्गमक्षेत्रस्य नागरिकेभ्यः समीचीनायाः शिक्षायाः स्वास्थ्यस्य च प्रदानम्, दलितानाम् विपन्नानाम् च बालबालिकानाम् कृते सहयोगकरणम्, स्वास्थ्य सुरक्षण सेवायाः विस्ताराय अर्थसंकलनम् च आसन् इति प्रधानमन्त्रिणः कथनम् वर्तते। प्रधानमन्त्री शाह नागरिकस्तरेषु दृष्टाम् समताकरस्य प्रतिक्रियाम् प्रति सर्वकारस्य गभीरम् ध्यानाकर्षणम् सम्भूतम् अस्ति इति च उल्लिखितवान् वर्तते। कस्मिन्नपि निर्णये नागरिकाणाम् असन्तोषे सति तत्र सुधाराय परिमार्जनाय च सर्वकारः तत्परोऽस्ति इति प्रधानमन्त्री शाह प्रावोचत्। अत्रान्तरे नेपाली कांग्रेस दलस्य सभापतिः गगन कुमार थापा निगदति वर्तमान आर्थिक वर्षात् शिक्षा स्वास्थ्ययोग क्षेत्रे निर्धारितस्य समताकरस्य निरसनस्य सर्वकारस्य निर्णय स्वागतयोग्यो वर्तते। ह्य सामाजिक सञ्जालस्य माध्यमेन सभापति थापा व्यवस्थेयं समीचीना नास्ति इति विषय अस्माभिः प्रारम्भादेव उत्थापितोऽस्ति इति चर्चयन् शिक्षा स्वास्थ्यञ्च विलासिताया क्षेत्रम् नास्ति इति प्रावोचत्। प्रमुख प्रतिपक्षिणो नेपाली कांग्रेस दलस्य सभापति थापा समताकरस्य निरस्तीकरण सम्बद्धस्य सर्वकारस्य निर्णयस्य क्रियान्वयनम् आवश्यक विधि व्यवस्थायाः प्राशासनिक प्रक्रियायाश्च अनुसारेण करणीयमित्यपि बलम् दत्तवान् वर्तते। प्रधानमन्त्री बालेन्द्र शाह निगदति स्वदेशे विद्यमानानाम् वसनोद्योगानाम् विकासाय प्रवर्धनाय च सर्वकारः प्रतिबद्धो वर्तते। प्रधानमन्त्री मन्त्रिपरिषद कार्यालये ह्य नेपाली वसनोद्योग संघस्य पदाधिकारीभिः विमृश्य प्रधानमन्त्री सह वसनोद्योगस्य विकासाय विस्ताराय च सर्वकारः सर्वविधाय सहजीकरणाय तत्परोऽस्ति इति प्रतिबद्धताम् व्यक्तवान् वर्तते। तदवसरे प्रधानमन्त्रिणा सायेन संघस्य पदाधिकारिणाम् याचनायाःनुसारेण उद्योग वाणिज्यापूर्ति मन्त्रालयान्तर्गतायाः टेक्सटाइल एण्ड क्लोदिंग डेवलपमेंट काउंसिल इति संस्थायाः संघटनाय कार्यमग्रेसारयितुं सम्बद्ध मन्त्रिः निर्दिष्टः। प्रधानमन्त्री शाह ऋणान् वसनोद्योगान् शीघ्रं संचालयितुं उद्योग वाणिज्यापूर्ति मन्त्रालयं च तदवसरे निरदिशत्। नेपालस्य प्रथम जननिर्वाचित प्रधानमन्त्रिणः दिवंगतस्य विश्वेश्वर प्रसाद कोइरालाविदस्य चतुश्चत्वारिंशः स्मृतिदिवसः अद्य विविधैः कार्यक्रमैः समायोज्यमानो वर्तते। वरिष्ठ साहित्यकारः जननेता च विश्वेश्वर प्रसाद कोइराला एकोनचत्वारिंशदधिकद्विसहस्रतम वैक्रमाब्दस्य श्रावण मासस्य षष्ठे दिवसे दिवंगत आसीत्। असौ एकसप्तत्युत्तरैकोनविंशशततम विक्रमाब्दस्य भाद्रमासस्य चतुर्विंशतिश दिवसे जात आसीत्। पञ्चदशोत्तरद्विसहस्रतमे वैक्रमाब्दे सम्पन्नस्य प्रथम संसदीय निर्वाचनस्य अनन्तरं षोडशोत्तरद्विसहस्रतम विक्रमाब्दस्य ज्येष्ठ मासे नेपालस्य इतिहासे प्रथम जननिर्वाचितः प्रधानमन्त्रिः सम्भूतः आसीत्। सप्तदशोत्तरद्विसहस्रतम विक्रमाब्दस्य पौषमासस्य प्रथम दिवसे तात्कालिकेन राज्ञा महेन्द्र शाह विदेन असौ प्रधानमन्त्री पदात् निष्कासितः आसीत्। तत अष्टौ वर्षाणि यावत् काष्ठमण्डपस्य सुन्दरी जलस्थाने कारागारवासे स्थापिता आसीत्। कारागारे अनेन सहैव नेपाली कांग्रेस दलस्य गणेशमान सिंह कृष्णप्रसाद भट्टराई प्रवृत्तय अन्य नेतारश्च आसन्। तथा पञ्चविंशत्यधिकद्विसहस्रतम विक्रमाब्दात् त्रयस्त्रिंशदधिकद्विसहस्रतम विक्रमाब्दम् यावत् अष्टौ वर्षाणि कोइराला भारतदेशे निर्वासितः आसीत्। नेपालस्य राष्ट्रियता एव संकटे अस्तीति कथयन् आत्मनः कृते उद्घुष्टम् प्राणदण्डमपि अविचार्यैव असौ त्रयस्त्रिंशदधिकद्विसहस्रतम विक्रमाब्दस्य पौषमासस्य षोडश दिवसे नेपालम् प्रत्यागतः आसीत्। नेपाली साहित्यस्य आख्यान विदायमपि कोइरालाविदस्य महत्वपूर्णम् योगदानम् वर्तते। निर्वाचन आयोगस्य प्रस्तावितस्य प्रमुखायुक्तस्य आयुक्तयोः संसदीय श्रवणम् अस्यैव श्रावणमासस्य द्वादश त्रयोदशयोः दिवसयोः भविता। संसदीय श्रवण समितेः ह्यस्तनोपवेशेन निर्वाचनायोगस्य प्रमुखायुक्तपदे प्रस्तावितस्य मानबहादुर कार्किणः, आयुक्तपदे प्रस्तावितयोः डाक्टर राजीव सुब्बा इत्यस्य गुरूप्रसाद वाग्ले विधस्य च श्रवणम् श्रावणमासस्य द्वादशे त्रयोदशे च दिवसयोः कर्तुम् निर्णीतम् अस्ति। संसदीय श्रवणस्य पूर्वम् समित्या प्रस्तावितस्य प्रमुखायुक्तस्य आयुक्तयोश्च विरुद्धे प्राप्तानाम् याचिका निवेदनानाम् विषये विमृश्य श्रवणम् करिष्यते इति सभापति बुधनारायण श्रेष्ठः ज्ञापयद। प्रमुख निर्वाचनायुक्तपदे प्रस्तावितस्य कार्किणः विरुद्धे एकम् याचिका निवेदनम्, आयुक्तयोश्च विरुद्धे कमपि याचिका निवेदनम् प्राप्तम् नास्तीति सभापतिः श्रेष्ठः असूचयत्। गता षाढमासस्य एकोनविंशे दिवसे उपविष्टेन सांविधानिक परिषदः उपवेशेन प्रमुखा निर्वाचनायुक्तस्य निर्वाचनायुक्तयोश्च नियुक्त्यर्थम् परामृष्टम् आसीत्। कृषि वन पर्यावरण मन्त्रिणा गीता चौधरी इत्यनया सह संयुक्त राष्ट्रसंघस्य खाद्य कृषि संगठन निर्देशकेन हुआ याङ इत्यनया शिष्टाचार मेलवार्ता विहितास्ति। मन्त्रालये ह्य सम्भूते मेलने नेपाले खाद्य सुरक्षाया कृषि क्षेत्रस्य रूपान्तरणस्य सबल कृषि खाद्य प्रणाल्या विकासस्य त्रिपक्षीयस्य सहयोग विस्तारस्य च विषयेषु विमृष्टम् वर्तते। नेपाल विद्यायोगेन विधि निर्माण दिग्दर्शनम् सार्वजनिक कृतम् वर्तते। विधि न्याय संसदीय विषय मन्त्रिणा सुविता गौतम इत्यनया ह्यो दिग्दर्शनम् एतत् सार्वजनिक कृतम् वर्तते। तदवसरे मन्त्री गौतमः दिग्दर्शने विधिनाम् निर्माणे विधिर्भाषा संरचना विषयवस्तु च समाविष्टाः सन्तीत्यतः विधि सम्बद्ध कार्याणाम् सम्पादनाय दिग्दर्शनमेतत् सर्वेभ्य उपयोगि शिष्यते इति प्रत्यपादयत्। सैव संघ प्रदेश स्थानीय स्तरेषु निर्मीयमाणानाम् विधिनाम् गुणस्तरस्य अभिवर्धनस्य च दिग्दर्शनस्य प्रकाशनम् उपयोगि शिष्यतीति विश्वासम् प्रकटयन्ति मन्त्री गौतमः। विद्यायोगेन परिमार्जनेन सह निर्मितम् दिग्दर्शनमेतत् महत्वपूर्णम् समय सान्दर्भिकम् च कार्यमस्तीति प्रत्यपादयत्। इति समाचाराः।